तस्मादपि सुभाषितम् गीर्वाण भारती तस्माथि काव्यं मधुरं तस्मादपि सुभाषितं भाषासमुख्या मधुरा दिव्या गीर्वाण